इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। ह्यः संसदः उभयोः सदनयोः केन्द्रीय वित्त संकल्पनापत्रं निधाय विषये चर्चा समनुष्ठिता। लोकसभायां राज्यसभायां च अस्य वित्तीय वर्षस्य केन्द्रशासित जम्मू कश्मीरस्य आय व्ययकस्य विषयेऽपि युगपदेव चर्चा जाता। राज्यसभायां चर्चायाः आरम्भे कांग्रेसदलस्य सांसदः पी चिदम्बरम् इत्येषः वृत्त्याभाव मुद्रास्फीति विषयान् च उत्थापयत्। असौ अवदत् यत् उत्पादन सम्बद्ध प्रोत्साहन योजना देशे पर्याप्त कार्यस्थानानि न कल्पयति इति वदन् असौ अग्रे अकथयत् वृत्त्याभावः एव बृहत्तमा समस्या वर्तते। तत्रैव वित्तमन्त्रिणा निर्मला सीतारामन् वर्यया वित्त संकल्पना प्रपत्रे कैश्चित् राज्यैः सह भेदभावस्य प्रख्यापिताः आरोपाः निरस्तीकृताः। ह्यः राज्यसभायां शून्य कालावधौ तया आरोपः प्रख्यापितः यत् कांग्रेसदलस्य नेतृत्वे अन्यैः विपक्षिदलैः भ्रामक सूचना प्रसारणस्य सततं प्रयासः क्रियते यत् विपक्षिदलानां राज्यैः वित्त संकल्पना प्रपत्रे किमपि न प्राप्तम्। तया प्रोक्तं यत् कस्मिन्नपि वित्त संकल्पना प्रपत्रे सर्वेषां राज्यानां पृथक् नामोच्चारणं नैव कर्तुं शक्यते। रेलमन्त्री अश्विनी वैष्णवः प्रोक्तवान् यत् रेल वित्त संकल्पना प्रपत्रे एकः महत्वपूर्ण भागः रेलयानानां सुरक्षां संवर्धयितुम् आवंटितः। ह्यः नवदिल्ल्यां श्री वैष्णवः इमां सूचनाम् अभिव्यक्तवान्। अग्रे असौ प्रत्यपादयत् यत् भूयोऽपि द्विषष्टिसहस्राधिक द्विलक्षकोटिरूप्यकाणां समग्र वित्तपत्रके एकलक्षकोटिरूप्यकाणि रेलसम्बद्ध सुरक्षायै संस्थापितानि। रेलमन्त्री पुनः प्रकाशितवान् यत् पंजाबराज्याय सप्तचत्वारिंशदधिकैकशतोत्तर पञ्चसहस्रकोटिरूप्यकाणि आवंटितानि, राजस्थानराज्याय च नवपञ्चाशदधिकनवशतोत्तरनवसहस्रकोटिरूप्यकाणि समुद्घोषितानि, यानि यूपीए प्रशासनस्य चतुर्दशगुणम् अधिकम् अस्ति। विलम्बितानां प्रकरणानां सौहार्दपूर्णं समाधानं समाधातुम् एकस्मिन् महत्वपूर्ण पदक्षेपे सर्वोच्चन्यायालयः जुलाई मासस्य नवविंशति दिनांकादारभ्य अगस्तमासस्य तृतीय दिनांकं यावत् विशिष्ट लोकन्यायालयस्य आयोजनं करिष्यति। भारतस्य मुख्यन्यायाधीशेन डीवाई चन्द्रचूडेन नागरिकाः अस्य कार्यक्रमस्य लाभः समावाप्तुं प्रार्थिताः सन्ति येषां प्रकरणानि शीर्षन्यायालये चिरविलम्बितानि सन्ति। भारतीय ऋतुविज्ञान विभागेन पूर्वानुमानितं यत् गुजरात कोंकण गोवा मध्य महाराष्ट्र राज्येषु अतिवृष्टिः सततं भविष्यति। अनेन विभागेन पुनः सूचितं यत् पञ्चदिवसानां काले हिमाचलप्रदेश उत्तराखण्ड जम्मू कश्मीर लद्दाख पंजाब हरियाणा उत्तरप्रदेश राजस्थान केरल तेलंगाना तमिलनाडु राज्येष्वपि मध्यमस्तरीया वृष्टिः संभाविता वर्तते। ह्यः बिहार विधानसभा प्राशासनिक प्रतियोगिता परीक्षासु प्रश्नपत्राणाम् अवैधोद्घाटनम् अनियमितताः च विरुध्य एकं विधेयकं पारितम् अकरोत्। बिहार सार्वजनिक परीक्षा विधेयकं चतुर्विंशत्यधिक द्विसहस्रतमम् इत्यस्य अन्तर्गतं वर्षत्रयात् समारभ्य दशवर्षाणि पर्यन्तं कारावासदण्डं गभीर प्रकरणेषु च एककोटिरूप्यकाणाम् अर्थदण्डं च प्रस्ताविते स्तः। अस्य विधेयकस्य उद्देश्यं परीक्षायोजकेषु सार्वजनिकेषु निकायेषु मेधावी छात्राणाम् अन्य प्रत्याशिनां च विश्वास संवर्धनम् अस्ति इति वार्ताः।